धर्मो मे च दुरङ्घ्रिकः सुचरितः पापं विनाशं गतम् कामक्रोधमदादयो विगलिताः कालः सुखाविष्कृतः ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते।